इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। अद्य भविष्यमाणाय हरियाणा विधानसभा निर्वाचनाय सर्वाः व्यवस्थाः सम्पादिताः। नवतिः विधानसभाक्षेत्रेभ्यः मतदानं सुनिश्चितमस्ति। मतदानप्रक्रिया प्रातः सप्तवादनतः सायं षड्वादनपर्यन्तं समनुष्ठीयसे। अस्मिन् नैर्वाचनिकरणे एकत्रिंशदधिकैकसहस्रं प्रत्याशिनां नियतिनिर्णयं भविष्यति। सुचारुरीत्या मतदानप्रक्रियां विधातुं द्वात्रिंशदधिकषड्शतोत्तरविंशतिसहस्रं मतदानकेन्द्राणि स्थापितानि सन्ति। जम्मूकश्मीरस्य त्रिचरणात्मिकी हरियाणायाश्च एकचरणात्मिकी मतगणना मासस्यास्य अष्टमे दिनांके निर्धारितास्ति। प्रधानमन्त्री नरेन्द्रमोदी अद्य महाराष्ट्रस्य एकदिवसीय यात्रायां भविष्यति। प्रधानमन्त्री स्वीय यात्रावधौ वाशिमनगरे प्रायः त्रिशतोत्तर त्रयोविंशतिसहस्रकोटिरूप्यकाणां कृषि पशुपालन क्षेत्र सम्बद्धानां विविधानाम् उपक्रमाणां शुभारम्भं करिष्यति। सः बंजारा विरासत संग्रहालयस्य उद्घाटनम् अपि करिष्यति। पश्चात् श्रीमोदी ठाणे इत्यत्र अष्टशतोत्तर द्वात्रिंशत्सहस्रकोटिरूप्यकाणां विविध विकास परियोजनानां उद्घाटनं शिलान्यासं च करिष्यति। वासिममण्डले प्रधानमन्त्री किसान सम्मान निधि पीएम किसान योजनायाः अष्टादशतमं पुटकम् उद्घाटयिष्यति। अस्मिन् कार्यक्रमे देशस्य 9.4 कोटितोप्यधिकाः कृषकाः प्रत्यक्ष वित्तीय लाभान् प्राप्नुयुः, यस्य मूल्यं 20,000 कोटिरूप्यकाणि अस्ति। अस्मिन् अवसरे सः नमो सेतकरी महासम्मान निधि योजनायाः पञ्चमं देयमूल्येन महाराष्ट्रस्य कृषकाणां कृते प्रायः 2,000 कोटिरूप्यकाणाम् अतिरिक्तलाभम् अपि विमोचयिष्यति। भारतस्य 5 सेमीकण्डक्टर इत्येतानि संयन्त्राणि शीघ्रमेव देशस्य विभिन्नेषु भागेषु स्थापयन्ते, तथा च मेड इन इण्डिया चिप्स इति इमानि विश्वस्य कृते सुलभानि भविष्यन्ति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। नवदिल्ल्यां कौटिल्य आर्थिक सम्मेलनम् अभिसम्बोधयन् प्रधानमन्त्री अवदत् यत् भारतं चलदूरवाण्याः आयातकारणात् उत्पादकत्वं प्रति अगच्छत् इति। भारते प्रत्येकस्मिन् क्षेत्रे निवेशस्य पर्याप्ताः अवसराः सन्ति, सः अवधानं दत्तवान्। रक्षामन्त्री राजनाथसिंहः ह्यः उक्तवान् यत् निवर्तमानसत्रेऽस्मिन् गृहगत रक्षोत्पादनं 27,000,000,000 कोटिरूप्यकाणां कीर्तिमदमपि उल्लङ्घितवत्। रक्षामन्त्री नवदिल्ल्यां SIDM इत्युक्ते भारतीय रक्षोत्पादन संघस्य सप्तमं वार्षिकोपवेशनं सम्बोधयन् अग्रे उक्तवान् यत् प्रशासनेन रक्षाक्षेत्रे अत्याधुनिक प्रौद्योगिक्याः विकासाय नैकाः योजनाः सन्ति समारब्धाः। श्रीसिंहेन आईडेक्स इत्यनेन सह प्रौद्योगिकी विकास कोषः अदिति योजना इत्येदीनां विषयेपि निगदितम्। विदेशमन्त्री डॉ एस जयशंकरः अक्टूबर मासस्य 15-16 दिनांकयोः इस्लामाबादे आयोक्ष्यमाणे SCO इत्यस्मिन् शिखरसम्मेलने भागं ग्रहीतुं भारतीय प्रतिनिधिमण्डलस्य नेतृत्वं करिष्यति। मन्त्रालयस्य प्रवक्ता रणधीर जयशवालः नवदिल्ल्यां वार्ताहर सम्मेलनस्य माध्यमेन पुष्टिम् अकरोत्। जाकिर नायक इत्यस्य पाकिस्तान देशयात्रायाः विषये श्रीजयशवालः अवदत् यत् भारतीय न्यायात् पलायितस्य पाकिस्तान देशे उच्चस्तरीयं स्वागतम् अभवत् इति भारते न आश्चर्यम् अस्ति इति। दुबय्यां महिला आईसीसी 20-प्रतिविंशतिप्रतिस्पर्धायां न्यूजीलैंड दलेन भारतम् 58 धावनांकैः पराजितम्। इति वार्ताः।